एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सत्ता गठबन्धनेन स्थानीय निर्वाचनाय महानगरपालिकानाम् उपमहानगरपालिकानाम् च विषये अद्य सायं यावत् निर्णीयते। बाल्वाटार वर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टेन पञ्चदलीय गठबन्धनस्य उपवेशेन महानगरपालिकानाम् उपमहानगरपालिकानाम् च नैर्वाचनिक समन्वयस्य विषये अद्य सायं यावत् निर्णेतुम् निर्णीतम् अस्ति। उपवेशेन अद्य यावत् महानगराणाम् उपमहानगराणाम् च विषये निर्णेतुम् अवशिष्टेषु सर्वेषु प्रदेश निर्वाचनस्य पूर्वकार्यस्य गठबन्धनस्य अवस्थायाश्च विषये अद्यैव कार्यदलस्य विवरणं ग्रहीतुं च निर्णीतमस्ति। निर्वाचनायोगः मतदाता शिक्षायै वैद्युत संचार माध्यमानां सामाजिक सञ्जालस्य च अधिकतम प्रयोगाय बलं ददाति। परम्परागता प्रचार पद्धति व्यसाध्या अप्रभावकारिणी च सम्भूतेति निष्कर्षेण आयोगेन विभिन्नेषु वैद्युत सञ्जालेषु प्रचार प्रसार सामग्रीणां प्रकाशने बलं दत्तं वर्तते। विगत समये निर्वाचन शिक्षायै विहितस्य व्ययस्य तुलनायां सामाजिक सञ्जालेभ्यः विहितः प्रचारः न्यून व्ययसाध्यः प्रभावकारी च दृष्टा इति निश्चयनेन प्रचार पत्राणां मुद्रणं विनैव निर्वाचन शिक्षायै आयोगेन निर्णीतं वर्तते। सामाजिक सञ्जालस्य विकसितानां नवीन प्रविधीनां च प्रयोगेण निर्वाचनं स्वच्छं मितव्ययी भयरहितं च विधातुं आयोगेन सर्वे सम्बद्ध पक्षाः अनुरुद्धाः सन्ति। अत्रान्तरे स्थानीय स्तराणां निर्वाचनमालक्ष्य निर्वाचनायोगेन मतदातृ शिक्षा कार्यक्रमस्य सञ्चालनाय पूर्वकार्यं विधीयमानं वर्तते। मतदातृ शिक्षा कार्यक्रमस्य सञ्चालनाय आवश्यक सामग्रीणाम् उत्पादनस्य कार्यम् अन्तिमचरणे प्राप्तमस्ति। अन्यानि पूर्वकार्याणि अग्रे वर्धितानि सन्तीति च आयोगेन ज्ञापितं वर्तते। स्याङ्जा जनपदस्य वालिङ नगरपालिकायाः द्वादशवडा क्षेत्रस्य डाँडाखर्क फिरफिरे स्थाने जीपयानम् दुर्घटितम् सत् पञ्चमृताः षड् जनाः आतास्त सन्ति। वालिङ नगरपालिकायाः द्वादशवडा क्षेत्रस्य डाँडाखर्क स्थानात् बायटारी स्थानम् प्रति प्रस्थीयमानम् जीपयानम् इह फिरफिरे स्थाने दुर्घटितम् आसीत्। मृतकेषु वालिङ नगरपालिकायाः द्वादशवडा क्षेत्रस्य 65 वर्षीयः वीरबहादुर डाला, 45 वर्षीया हीरा डाला, 25 वर्षीया शर्मिला सारु, शर्मिला सारु इत्यस्याः षाड्मासिकः पुत्रश्च, बालिङ नगरपालिकायाः एव 14 क्षेत्रस्य 61 वर्षीया कुलकुमारी कनौजे च सन्तीति स्याङ्जा जनपद प्रहरी कार्यालयस्य प्रवक्ता पदमराज थापा अज्ञापयत्। आहताः जनाः अतिरिक्त उपचाराय पोखरावर्तिनम् गण्डकी चिकित्सा महाविद्यालयम् प्रेषिताः सन्ति। जीपयानम् मार्गाद् आसन्न 102 मीटर मितम् अधः निपतितम् आसीत्। मृतकाः आहताश्च जनाः सर्वेऽपि एकस्यैव ग्रामस्य सन्तीति हेतोः सम्प्रति ग्रामः शोकमग्नो वर्तते। पृथ्वीराजमार्गस्य अन्तर्गते धादिङ जनपदस्य बेनीघाट रोराङ ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य सलङ्घाटस्थाने ह्य यातायात साधन त्रयम् परस्परम् संघटितम् सद् दुरापन्नायाम् दुर्घटनायाम् एकः मृतः 16 आताश्च वर्तन्ते। पोखरास्थानात् काष्ठमण्डपम् प्रति आगच्छता माइक्रोयानेन विपरीत दिशः आगच्छत कारयानम् संघटितम् सद् दुर्घटना घटितेति गजुरी स्थानीय प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः भावेश रिमालः असूचयत। दुर्घटनायां तनहु जनपदस्य दमौली वर्तिनी रत्नहरी चिकित्सालये कार्यरता 26 वर्षीया मुना गुरूङ मृतास्ति। राष्ट्रपतिः विद्यादेवी भण्डारी भासते समाजस्य अनुकूल रूपान्तरणाय चलचित्र क्षेत्रस्य भूमिका महत्वपूर्ण भवति। चलचित्र विकास समित्या ह्य शीतल निवास स्थिते राष्ट्रपति कार्यालय आयोजिते विशेष चलचित्र साधना सम्मान कार्यक्रमे राष्ट्रपतिः भण्डारी अवोचत् देशप्रेम्णः भावनां जागरयितुं सभ्य समाजं निर्मातुं च चलचित्र क्षेत्रम् महत्वपूर्ण माध्यमो वर्तते। राष्ट्रपतिः भण्डारी अकथयत् चलचित्र क्षेत्रम् सामाजिक यथार्थ प्रतिबिम्बकः शक्तिशाली माध्यमश्च अस्तीति हेतोः जनचेतना नायः जागरणत्वेन चलचित्राणां निर्माणाय व्यवस्थापनाय च बलं प्रदातव्यम्। राष्ट्रपतिः भण्डारी नेपालः चलचित्रस्य छायांकनाय विश्वस्यैव आकर्षणस्य केन्द्रम भवितुं शक्नोति इति हेतोः चलचित्र विकास समित्यात्र बलप्रदानम् आवश्यकमस्तीति अवोचत। समारोहे संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की अकथयत् चलचित्र क्षेत्रम् मनोरञ्जनस्य समाज रूपान्तरणस्य च साधनं वर्तते इत्यतः एतस्य विकासाय मन्त्रालयः सर्वविधं सहयोगं विधातुं तत्परो वर्तते। मन्त्री कार्की अगदत् चलचित्र क्षेत्रम् इतोप्यधिकं मर्यादितं व्यावसायिकं च विधातुं सम्बद्ध पक्षै सह सहकार्यं विमर्शनं च विधाय वस्तुगत नीतिं निर्मातुं मन्त्रालयः क्रियाशीलो वर्तते। कार्यक्रमे चलचित्र विकास समितेः अध्यक्ष दयाराम दाहालः अवदत् चलचित्र क्षेत्रस्य व्यावसायीकरणाय प्रवर्धनाय च समितिः कार्यं कुर्वती अस्ति। समारोहे राष्ट्रपतिः विद्यादेवी भण्डारी, संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की च चलचित्र क्षेत्रस्य विकासाय विशेष योगदानं प्रापयतो विभिन्नान् महानुभावान् सम्मानयताम्। चलचित्र दीर्घ साधना सम्मानेन नेपालस्य प्रथम नायिका भुवन थापा चन्द, वरिष्ठ संगीतकारः सम्भुजित बास्कोटा च सम्मानितौ स्तः। चलचित्र दीर्घ साधना सम्मानस्य पुरस्कार राशौ ससम्मान पत्रम् लक्षत्रयम् 150,000 एकादशाधिक शतञ्च रूप्यकाणि सन्ति। समारोहे चलचित्र क्षेत्रस्य विभिन्नेभ्यो मानुभावेभ्य राष्ट्रिय चलचित्र पुरस्कारः, विशेष चलचित्र पुरस्कारः, विशेष योगदान पुरस्कारश्च प्रदत्ताः आसन्। सभामुखः अग्निप्रसाद सापकोटा कथयति भ्रष्टाचारस्य नियन्त्रणाय कठोररूपेण विधिः क्रियान्वेतव्यः। ह्य काष्ठमण्डपे प्रारब्धाम् भ्रष्टाचार विरोधी नाम व्यङ्ग्यचित्राणाम् प्रदर्शनीम् उद्घाटयन् सभामुखा सापकोटा अगदत् नेपाले भ्रष्टाचारः गभीर समस्यायाः रूपेण दृष्टोस्थिति हेतोः एतस्य नियन्त्रणाय सामूहिक संकल्पस्य आवश्यकता वर्तते। असौ व्यङ्ग्यचित्राणाम् प्रदर्शन्या आत्मानमपि आन्तररूपेण भ्रष्टाचारस्य विरूद्धे सन्नद्धतायै प्रेरणा मिलितेति चर्चयन् एतस्य विरूद्धे कार्यम् कर्तुम् प्रतिबद्धताम् व्यक्तवान्। चितवन राष्ट्रिय निकुञ्जे संचाल्यमानं गिद्ध प्रजनन केन्द्रं विधाप्यमानं वर्तते। प्रकृतौ गिद्धराणां संख्या वर्धमानास्तीति कारणेन केन्द्रे प्रजननं प्रभावकारी न सम्भूतम् इत्यतः केन्द्रमेतद् विधाप्यमानमस्ति। निकुञ्जस्य प्रमुख संरक्षणाधिकृतस्य हरिभद्र आचार्यस्य अनुसारेण सम्प्रति प्रजनन केन्द्रे 10 गिद्धराः एव सन्ति। कृत्रिमरूपेण विहितात् प्रजननात् प्राकृतिकरूपेण सम्भूतं प्रजननं प्रभावकारी दृष्टमित्यतः प्रकृति संरक्षणे बलं प्रदत्तमस्तीति प्रमुख संरक्षणाधिकृतः आचार्यः ज्ञापितवान्। आराष्टम् ह्यः सहस्रत्रयस्य 89,000 च निदर्शनानां परीक्षणे विहिते द्वादशसु जनेषु कोरोना संक्रमणं पुष्टिभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्यः आराष्टम् अतिरिक्ताः 37 जनाः कोरोना संक्रमणात् मुक्ताः सन्ति।